इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। बिहार विधानसभा निर्वाचनस्य प्रथमचरणस्य मतदानाय विविध राजनीतिदलानि प्रचारकार्ये रतानि सन्ति। भारतं पाकिस्तान समर्थितं आतंकवादं विरुध्य तस्य निन्दाम अकरोत्। प्रोदीरयत् यत् इस्लामाबादेन प्रायोजितं आतंकवादं प्रतिवेशिनः देशाः अस्वीकुर्वन्ति। विदेशकार्यमन्त्री डॉ एस जयशंकरः अद्य साइप्रस देशस्य स्वकीयं समकक्षं सम्मिल्य तस्य देशस्य सार्वभौमत्वं ऐक्यं प्रादेशिक अखण्डतां च प्रति भारतस्य अविचल समर्थनं पुनरुद्घाटितवान्। अमेरिकया डॉनल्ड ट्रम्पः शी जिनपिंग इत्यनयोः मेलनानन्तरं चीनदेशस्य उपरि शुल्कं वर्तमानस्य 57% अपचित्य 47% यावत् कृतम्। आईसीसी महिला क्रिकेट क्रीडायाः एकदिवसीय विश्व चषके नवी मुंबय्यां द्वितीये प्रागुपान्त्यचक्रे भारतीय दलं ऑस्ट्रेलिया दलं सम्मुखी करोति। अथ वार्ताः विस्तरेण। बिहार विधानसभा निर्वाचनस्य प्रचारः प्रथमचरणस्य मतदानात् पूर्वमेव तीव्रः अभवत्। एनडीए दलं महागठबंधन दलानि च परस्परं आरोपं प्रख्यापयन्ति मतदातृन् आकर्षयितुं सर्वान् प्रयत्नान् कुर्वन्ति सन्ति। बिहारस्य मुजफ्फरनगरे निर्वाचन समारोहं सम्बोधयन् भाजपा दलस्य वरिष्ठ नेता तथा प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् बिहारस्य जनानां कृते शिक्षां स्वास्थ्यसेवां सिंचनक्षेत्रे च पर्याप्तावसरान् सुनिश्चेतुं एनडीए दलं प्रतिबद्धमस्ति। सः अवदत् यत् सर्वकारः बिहारतः प्रवास समस्यां निवारयितुं राज्ये पर्याप्त जीविकाम् अवसरान् निर्मातुं च उपायान् करिष्यति।
बिहार का गौरव और बढ़ाना, बिहार की मीठी बोली, बिहार की संस्कृति, इसे दुनिया के कोने कोने में ले जाना, बिहार का विकास करना एनडीए भाजपा की ये सबसे बड़ी प्राथमिकता है। आज विकसित भारत बनाने के लिए भी बिहार का विकसित होना बहुत जरूरी है।
विपक्षस्य आरजेडी कांग्रेस दलयोः उपरि तेषां कार्यकाले बिहारराज्ये कुशासनस्य आरोपं प्रख्याप्य मोदीवर्यः उक्तवान् यत् तेषां शासनकाले राज्ये कीदृशः अपि विकासः न अभवत्, अपरत्र भ्रष्टाचारः एव सर्वत्र व्याप्तः आसीत्। छठपर्वणः विषये आरजेडी कांग्रेस दलयोः प्रतिकूलटिप्पण्यः अपि प्रधानमन्त्री निन्दाम् अकरोत्। सः अवदत् यत् बिहारस्य जनाः एतत् अपमानं न सहिष्यन्ति।
आरजेडी के नेता अपने टोलियां लेकर के, अपने साथियों को लेकर के शोरूम लूटवा लेते थे, गाड़ियां लूट जाते थे। आरजेडी कांग्रेस के ऐसे ही कुकर्मों ने लाखों नौजवानों को बेरोजगार कर दिया, पलायन करने के लिए मजबूर कर दिया। जंगल राज के दिनों को याद करते हैं तो अंदाजा लगता है कि हालात कितने खतरनाक थे।
अपरत्र महागठबंधन इत्यस्य मुख्यमंत्री पदस्य प्रत्याशी तेजस्वी यादवः आरोपं प्रख्यापयत् यत् राजनैतिक दलानि मतानां कृते बिहारस्य शोषणं कुर्वन्ति, गुजरात राज्ये उद्योगान् च स्थापयन्ति। सः एतादृशानि दलानि पुनः सत्ता प्राप्तितः विमुखानि कर्तुं बिहारस्य जनान् प्रार्थयत्।
इनको केवल गुजरात में फैक्ट्री लगाना है, बिहार से केवल वोट लेना है, बिहार की जनता इनको सबक सिखाने का काम करेगी। बिहार को बिहार का लाल ही चलाएगा, ना कि कोई बाहरी आकर के चला।
विदेश मंत्रालय अद्य अवदत् यत् भारतम् अमेरिका पक्षेन सह व्यापार सन्धिं समाधातुं निरन्तरं संलग्नम् अस्ति। अद्य अपराह्णे नवदिल्ल्यां प्रसार माध्यमान् सम्बोधयन् विदेश मंत्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् द्वौ एव पक्षौ अस्मिन् विषये चर्चां निरन्तरं कुर्वन्तौ स्तः। सः अकथयत् यत् भारतीय पक्षः रूस देशस्य तैलोद्योग संस्थानेषु सद्यः एव अमेरिका देशस्य प्रख्यापितानां प्रतिबन्धानां प्रभावस्य अध्ययनं कुर्वन् अस्ति। सः अवदत् यत् नवदिल्ल्याः निर्णयाः स्वाभाविकतया वैश्विक विपण्यः विकसितां गतिशीलताम् अवलम्बन्ते। सः अवदत् यत् ऊर्जास्रोतस्य बृहत्तर प्रश्ने भारतस्य स्थितिः सर्वविदितास्ति, तथा च देशः 1.4 कोटि जनानां ऊर्जासुरक्षायाः आवश्यकतां पूरयितुं विविधस्रोतेभ्यः सुलभ ऊर्जासुरक्षायाः अनिवार्यता सुनिश्चेष्यति। पाकिस्तान अफगानिस्तान इत्येतयोः विषये प्रश्नस्य प्रत्युत्तरे प्रवक्ता अवदत् यत् अफगानिस्तान स्वक्षेत्रेषु सार्वभौमत्वस्य प्रयोगं कुर्वन् अस्ति, येन पाकिस्तानदेशः क्रुद्धः अस्ति।
पाकिस्तान अफगानिस्तान द्वारा अपने क्षेत्रों पर संप्रभुता के प्रयोग करने से क्रूद है। पाकिस्तान ऐसा सोचता है कि उसका अधिकार है कि वह सीमा पार क्रॉस बॉर्डर टेररिज्म करता रहेगा और दंड मुक्ति के साथ करता रहेगा। जहां तक भारत का सवाल है, हम अफगानिस्तान के संप्रभुता, क्षेत्रीय अखंडता, स्वतंत्रता के लिए प्रतिबद्ध हैं।
संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथवा न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सः अवदत् यत् पाकिस्तान देशः प्रतीयते यत् पारे सीमम् आतंकवादम् आचरितुं तस्य अधिकारः, परञ्च तस्य प्रतिवेशिनः एतत् अस्वीकारं कुर्वन्ति। सः अवदत् यत् भारतम् अफगानिस्तान देशस्य सार्वभौमत्वं, प्रादेशिक अखण्डतां, स्वातन्त्र्यं च प्रति पूर्णतया प्रतिबद्धम् अस्ति। अन्यस्य प्रश्नस्य प्रत्युत्तरे श्री जायसवाल अवधानं दत्तवान् यत् भारतम् अफगानिस्तान देशस्य स्थायी जल प्रबन्धनाय, जल विद्युत परियोजनायै च समर्थनं दातुं सज्जम् अस्ति। विदेश कार्यमंत्री डॉक्टर एस जयशंकर अद्य साइप्रस देशस्य सार्वभौमत्वं, ऐक्यं, प्रादेशिक अखण्डतां च प्रति भारतस्य अविचल समर्थनं पुनरुद्घाटितवान्। सः प्रासंगिक संयुक्त राष्ट्र सुरक्षा परिषद प्रस्तावानाम् अनुगुणं राजनैतिक समानतया सह द्विमण्डल द्विसांप्रदायिक संघस्य कृते अपि प्रतिबद्धतां प्रकटितवान्। डॉक्टर जयशंकर अद्य नवदिल्ल्यां साइप्रस देशस्य समकक्षीयेन डॉक्टर कॉन्स्टान्टिनोस कोम्बोस इत्यनेन सह मेलन समये एताः टिप्पण्यः अकरोत्। डॉक्टर जयशंकरः अवदत् यत् अस्मिन् वर्षे जून मासे प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य साइप्रस देशस्य यात्रावधौ समग्र सहभागित्वस्य कार्यान्वयन विषये एक संयुक्त घोषणा जाता आसीत्। अद्य अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पः इत्यनेन चीनदेशस्य उपरि शुल्कस्य घोषणा कृता, यस्यानन्तरं शुल्कं वर्तमानस्य 57% अपचित्य 47% यावत् भविष्यति। दक्षिणकोरिया देशस्य बूसान नगरे चीनदेशस्य राष्ट्रपतिना सी जिनपिंग इत्यनेन सह सम्मिल्य ट्रम्पवर्यः अवदत् यत् चीनदेशः अमेरिकादेशात् तत्क्षणमेव सोयाबीन धान्यं क्रेतुम् आरभते। ट्रम्पः अकथयत् यत् चीनदेशस्य उपरि फेंटानिल इति शुल्कं 20% अपचित्य 10% यावत् न्यूनं भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य अवदत् यत् राष्ट्रिय एकता दिवसस्य अवसरे एक भारत श्रेष्ठ भारत इत्यस्य प्रतीकभूतस्य भव्य एकता परेड इत्यस्य उद्घाटनं श्वः प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य केवडिया नगरे करिष्यति। सः अवदत् यत् प्रतिवर्षं अक्टूबर मासस्य 31 दिनांके एकता नगरे अस्य आयोजनं भविष्यति। पटना नगरे पत्रकार सम्मेलनं संबोधयन् श्रीशाहवर्यः अवदत् यत् प्रतिवर्षं नवदिल्ल्यां आयोजितस्य गणतंत्र दिवसस्य परेड प्रदर्शनं इव सरदार वल्लभभाई पटेलस्य 50-101 जन्मवार्षिकस्य कृते एतत् परेड प्रदर्शनं अद्वितीयं भविष्यति। भगवान बिरसा मुंडा वर्यस्य जन्मवार्षिकस्य स्मरणार्थं एकता नगरे 1 नवंबर दिनांकात् आरभ्य 15 नवंबर पर्यन्तं भारत पर्वणः आयोजनं भविष्यति इति अपि शाहवर्यः अघोषयत्। आईसीसी महिला क्रिकेट क्रीडायाः एकदिवसीय विश्व चषके नवी मुंबय्यां द्वितीये प्रागोपान्त्यचक्रे भारतीयदलं ऑस्ट्रेलियादलं सम्मुखीकरोति। बिहार विधानसभा निर्वाचनस्य प्रथमचरणस्य मतदानाय विविध राजनीतिदलानि प्रचारकार्ये रतानि सन्ति। भारतं पाकिस्तान समर्थितं आतंकवादं विरुध्य तस्य निन्दाम् अकरोत्। प्रोदीरयत् यत् इस्लामाबादेन प्रायोजितं आतंकवादं प्रतिवेशिनः देशाः अस्वीकुर्वन्ति। विदेश कार्यमंत्री डॉक्टर एस जयशंकरः अद्य साइप्रस देशस्य स्वकीयं समकक्षं सम्मिल्य तस्य देशस्य सार्वभौमत्वं, ऐक्यं, प्रादेशिक अखण्डतां च प्रति भारतस्य अविचल समर्थनं पुनरुद्घाटितवान्। अमेरिकायाः डोनाल्ड ट्रम्पः शी जिनपिंग इत्यनयोः मेलनानन्तरं चीनदेशस्य उपरि शुल्कं वर्तमानस्य 57% अपचित्य 47% यावत् कृतम्। अपि च आईसीसी महिला क्रिकेट क्रीडायाः एकदिवसीय विश्व चषके नवी मुंबय्यां द्वितीये प्रागोपान्त्यचक्रे भारतीयदलं ऑस्ट्रेलियादलं सम्मुखीकरिष्यति।